सर्वेभ्यो नमः स्वागतं प्रथमतया वयं प्रार्थनां वदामः वृन्दा भगिनी
ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः 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 ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः 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 ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः 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 श्रीगुरुभ्यो नमः हरि ओम्।
धन्यवादः भगिनी। अस्तु, प्रथमतया किञ्चित् वयं लकारस्य विषये पुनस्मरणं कुर्मः। अस्तु, तत्र वयम् उक्तवन्तः तत्र दशलकाराः सन्ति, तत्र लट् लकारः अस्ति, एतत् वर्तमानकाले अस्ति, तत्र यथा सः भवति सा गच्छति लट् लकारः अस्ति। अनन्तरं तत्र लुट् लकारः इति भवति, तत्र सः भविता इति भवति। अनन्तरं तत्र लृट् लकारः अस्ति, एतत् वयं पठितवन्तः, तत्र भविष्यत्काले भवति, सः भविष्यति सा गमिष्यति इति भवति। अनन्तरं लुङ् लकारः इति अस्ति, तत्र सः अभूत् इति भवति तस्य रूपाणि। अनन्तरं लङ् लकारः अस्ति, एतत् वयं पठितवन्तः, यथा सः अभवत् सा अपठत् इति अस्ति। अनन्तरं लिट् लकारः अस्ति, एतत् वयं न पठितवन्तः, तत्र सः अभूव इति भवति। अत्र केवलं केचन लकाराः एव दत्तमस्ति, परन्तु वयं लूट् लकारः अपि वयं पठितवन्तः, एतत् अत्र नास्ति। अस्तु, अनन्तरं लकारस्य विषये तत्र वयं लङ् लकारस्य भूतकालार्थे लङ् लकारस्य परस्मैपदि धातोः रूपाणि अपि दृष्टवन्तः, तत्र अपठत् अपठताम् अपठन् अपठः अपठतम् अपठत अपठम् अपठाव अपठाम इति भवति। अपि तत्र अत्र व्यञ्जनादीनाम् आगमः अस्ति, परन्तु अत्र ऐच्छत् इति भवति। अस्तु, ऐच्छत् ऐच्छताम् ऐच्छन् ऐच्छः ऐच्छतम् ऐच्छत ऐच्छम् ऐच्छाव ऐच्छाम इति भवति। अस्तु,
केन् यु रिपीट् दट् भगिनि? ऐच्छत इस् सारी, ऐ डिडन्ट् गेट् दट्।
स्वरादीनाम् आ आगमः।
So it's still parasmaipadi or is it atmanepadi?
No, parasmaipadi.
Parasmaipadi.
Tatra icchati ityasya.
Okay. Tatra, so icchati becomes aichat.
Kimartam chet? Ekanam shaha. Tatra.
Tatra gunam bhavati bhagini. A, E will become
A. Yeah. A. Tatra. यदा वयम् अपठत् इति वदामः किल, तत्र योगः इ इति भवति। एतत् अस्ति अद्य एव एतस्य विषये किञ्चित् पठामः, परन्तु इदानीं एतत् एव कुर्मः. अस्तु. इदानीम् आत्मनेपदे क्रियापदानि रूपाणि. तत्र आत्मनेपदे क्रियापदानि सन्ति, ते इति सन्ति. वर्धते, वर्तते, विन्ते, अश्नुते इति भवति. तत्र अत्र अवन्दत, अवन्देताम्, अवन्दन्त, अत्र अयोगः ते अस्ति. तत्र वर्ध ते योगः, अयोगः ते इति अत्र भवति. परन्तु अत्र चिनुते, अश्नुते, खिन्ते, विन्ते इति पश्यामः चेत् तत्र चिनुते, तत्र नकारः योगः उ योगः ते, तत्र अकारः नास्ति. अस्तु. तत्र तस्य रूपाणि किञ्चित् भिन्नाः भवन्ति. अस्तु. तत्र अचिनुत, तत्र अचिन्वाताम् इति भवति. अत्र अवन्देताम्, अत्र अचिन्वाताम्, अचिन्वत, अवन्दन्त इति भवति. अनन्तरं तत्र अचिन्वाताम् इति भवति, परन्तु अत्र अवन्देताम् इति भवति. तत्र भिन्न, किञ्चित् भिन्नः भवति. अस्तु. अत्र प्रश्नाः सन्ति वा
भगिनी? वाट् इस् द डिफ़रेन्स् बिट्वीन् द वर्ड् वर्धते अण्ड् चिनुते चिनुते अश्रुते अण्ड् आल् स्पेशल् वर्ड् इस् इट्
न they just they don't have akara before that day. That is all.
Okay.
So we're putting it into two groups, not that this is special and not like that, but this is the easy forms. That if you think of this as easy, then that will be hard. If you think of this as the basic form, then that will be another form, special form. But the only difference is that they're still atmanepadi. This one, the vartate, bhashate, they have akaraha before the te, but here you do not have akaraha before the te.
Okay.
Tatra, esheva tashal akaraha. Lat, let, lung, lung, let, ling, lot, lut, lrit, lung. Iti bhavati. अस्तु. अत्र प्रश्नाः सन्ति वा?
What do these all the lakaras mean, Bhagini?
They are different verb tenses, Mahodaya.
Okay.
They each
is
give a different
explanation.
Meaning.
Yeah, is there a more explanation on each one of them?
What do you mean, Mahodaya?
Like, we know that lat means present, but,
you can, like, give names for them, for certain of them, but some you just have to understand, Mahodaya.
Okay.
Asta. Idaniyam vayam गीतसोपने उपसर्गानां विषये पठामः. तत्र उपसर्ग अस्तु. वृन्दाभगिनी भवती अत्र पठति वा प्रथमम्?
उपसर्गः इत्युक्ते प्रीफिक्स्.
गोपाल् महोदय द्वितीयम्.
उपसर्गप्रयोगेण
न न अत्र अत्र महोदय अत्र तत्र
ओके सोरि मया तत्र इट् इस् विंशतिः एकद्वाविंशतिः उपसर्गाः सन्ति.
समीचीनम्. इदानीं लक्ष्मीभगिनी भवती सर्वाणि उपसर्गाणि पठति वा अत्र?
आं भगिनि. प्र पर अप् सम् अन् औ अव अ प्र पर अप सम सम् अन्
अनु तत्र किञ्चित् अत्र अनु इति भवति अनु
अव निस् निस् निस्सु निस् अधि अपि अति सु उत् अभि प्रति परि उप.
समीचीनम्. अस्तु इदानीं काञ्चन उदाहरणानि पश्यामः. अस्तु अत्र प्र इति अस्ति प्रथमं. प्र तत्र प्र भवति प्रका प्रकर्षः प्रयत्नः प्रतिष्ठा इति भवति. तत्र प्रतिष्ठा गङ्गा हिमालयात् प्रभवति इति भवति. अस्तु द्वितीयं परा इति अस्ति. तत्र पराजयते पराभवति इति क्रियापदानि सन्ति. अनन्तरं सैनिकः तत्र उदाहरणमस्ति सैनिकः शत्रून् पराजयते इति. अस्तु इदानीं नागेन्द्रमहोदय भवान् तृतीयं पठतु.
अपहरति अपकरोति चौरः धनम् अपहरति.
समीचीनम्. अनन्तरं प्रिया भगिनी भवती पठतु.
संस्करोति सङ्गच्छते अध्यापकः छात्रं संस्करोति.
समीचीनम्. अस्तु
Bhagini, for even words like prakoshtaha, the pra is a prefix there or is it not?
Upasarga hai vasti.
Bhagini, aparati is robs, is it? Chorati, so is the word a plus paharati, is it? Upasarga a?
Upasarga is apa.
तत्र अपहरति तत्र सं करोति तत्र अत्र सन्धिः भवति तदर्थमेव.
वी केन् से द सेण्टेन्स् एस् चौरः धनं हरति आल्सो. देट् इस् आल्सो करेक्ट् इस् इट्?
No. You can say that, but it won't have the same meaning. Harati will, harati has a different meaning than apaharati.
What would that be, Bhagini?
Harati means just to take away, but apaharati means to steal or to take by force.
Dhanyavad Mahade.
इदानीं बृन्दाभगिनी भवती अनु इत्यस्य पठतु.
वन् सेकेण्ड् भगिनि, दट् प्रीवियस् वन् सेकेण्ड् इफ् यु गो टु द प्रीवियस् स्लैड् भवती वट् डस् परा भवति मीन्
tatra
parajay is to you know overpower over not to win over to take but what does para bhavati mean bhavati means to exist para bhavati
samanya eva it's the same mahodaya
You say same, what do you mean by that?
Still means to exist. Is that
okay, to exist.
Same meaning?
Same meaning, okay. Okay.
अस्तु अनन्तरम् अनु वृन्दा भगिनी
अनु अनुगच्छति अनुकरोति शिष्यः गुरुम् अनुगच्छति
समीचीनं
भगिनी केन् यु आल्सो से द मीनिङ्ग्स् आफ् द सेण्टेन्सेस् वैल् वी आर् गोयिङ्ग् थ्रू देम् विल् बी हेल्प्फुल्
आम् एकनिमिषः अत्र एकनिमिषः अस्तु दृश्यते वा
हा भगिनि
अस्तु अत्र शिष्यः गुरुम् अनुगच्छति इत्युक्ते अनुगच्छति इत्युक्ते किम्
बिहैण्ड्
फालोस् तत्र
फालो
फालो
Thus, as you know, does whatever is said by the guru or whatever he says to do, to follow.
Yeah.
To exactly follow as he does or as he says. Gacchati is to go. Anugacchati means to follow.
Follow atava tatra anugacchati tikte go along with atava follow. Go after iti bhavati
anuradha means the one who is behind or follows radha so anugachati is the one who follows the person
who follows the guru atra asta anantaram ava iti upasargah गोपाल् महोदय भवान् पठतु
अवगच्छति अवतरति रामः भवन्तम् अवगच्छति रामः भवन्तम् अवगच्छति अवजानाति वा अवजानाति वा कम् गच्छति अवगच्छति डोंट नो व्हाट्स द मीनिंग ऑफ अवगच्छति
अवगच्छति इत्युक्ते किम्
डिड यू अंडरस्टैंड
दैट इज
भवन्तम् he understands you
but that is gacchati is to go right so avagacchati is to understand the upasarga changes the word to understand okay rama understands you all and avajanati
all ati kutra asti
So, Bhavantam or understands you.
Ekvachan.
Ramaha Bhavantam avagacchati. So, Rama understands you then.
Api avajanati tikte kim?
Knows you.
Huh?
Knows you. भगिनी वाट् इस् देन् अनुकरोति आल्सो अनुगच्छति इस् टु फालो आर् गो अलाङ्ग् वित् अनुकरोति विल् बि
किं भगिनि
द अनु अनुगच्छति इस् टु फालो
आम्
अनुकरोति
अनुकरोति इत्युक्ते डु आफ्टर् फालो इन् डूयिङ्ग् इमिटेट् इति भवति अनुकरोत् इत्यस्य. अस्तु, अनन्तरं निर्गच्छति, निर् इति उपसर्गः. लक्ष्मीभगिनी भवती पठतु.
निर् निर्गच्छति, निराकरोति. प्राचार्यः कार्यालयात् निर्गच्छति. कार्यालय ओके. सो प्राचार्यः निर्गच्छति. सो
लीव्स् वर्क् इति भवति अतः.
ओ निर्गच्छति एव
अत्र. निराकरोति इत्युक्ते किम्?
Didn't do it. Doesn't like it.
Nirakaroti itikte reject.
Reject, yeah.
Anantaram. Nis. Iti asti. Nagendra Mohdi.
Nis. Nishkarm. निस्सरति. सर्पः बिलादः, सोरि, सर्पः बिलाद निस्सरति.
अत्र हन्तशब्दः अस्ति, तदर्थं नूतनः अस्ति अत्र. परन्तु तस्य कुटीरः तत्र भवति, सर्पस्य गृहं भवति किल.
गोस् इन् टु द होल्.
आम् आम्, समीचीनम्. अस्तु, अत्र प्रश्नाः सन्ति वा? अस्तु,
बिलाद् भगिनि,
हिस् होल्, हिल् हाव् हिस्
होल्
माउण्ट्
वेर् द स्नेक् स्टेज्.
ओ ओके,
दट् प्लेस्. अस्तु
Bhagini, in all these, looks like which of these are against, which changes the word completely opposite to the word?
It depends on the word, Mohandeya.
For example, nir, it doesn't change completely.
It depends on it. Yes. We will not go through everything, but I'll send it if you want to go through everything and like learn what each one means. But for now, we'll continue on. Astu. Idani, tatra, ek nimishah. Astu. Drishyate kila?
Na bhagini.
Astu. Ek nimishah, punaha karomi. दृश्यते किल?
आम्.
अस्तु, तत्र यदा वयं तत्र वयं लङ्लकारः तत्र अपठात् लङ्लकारः पठितवन्तः किल, तदा वयं तत्र अस्तु आगच्छति इति अस्ति किल, तत्र गच्छति इति अस्ति, तस्य लङ्लकारे रूपं किं भवति?
आगच्छत्
भवति किल. परन्तु इदानीम् आ योगः गच्छति तत्र आ गच्छति तस्य किं भवति लङ्लकारः
आगच्छत्
तत्र
आगच्छत्
किं कुर्मः चेत् गच्छति इत्यस्य वयं जानीमः अगच्छत् इति किल परन्तु आ योगः अ किम् आ एव तत्र आगच्छत् इति भवति इदानीं तत्र बहवः उपसर्गाः सन्ति किल तत्र अप अन इति सर्वाणि भवन्ति किल तत्र वयं कथं जानीमः एतत् योजयामः चेत् किं भवति इति तत्र अ इति सुलभः अस्ति परन्तु अन्यत् अस्ति चेत् वयं किं कुर्मः किल तदर्थं अत्र तत्र अ आगमः धातुः अस्तु एकः स्वरधातुः वदन्तु सर्वे
किं भगिनि वाट् इस् द क्वश्चन्
स्वरधातुः उत्तिष्ठति
तत्र धातुरूपं भवति उत्तिष्ठति अस्तु उत्तिष्ठति तत्र किमस्ति एकनिमिषः उत्तिष्ठति इति अस्ति चेत् अत्र उत्तिष्ठति तत्र तिष्ठति इति भवति किल तिष्ठति इत्यस्य लङ्लकारः किं
लङ्लकारः तिष्ठति
अतिष्ठत्
अतिष्ठत् इदानीम् अतिष्ठत् इति अस्ति चेत् आयोजयामः न तत्र
आ प्लस् आ योग उ ओतिष्ठति
आम् समीचीनम् परन्तु
उत्तिष्ठति लङ्लकारः औत्तिष्ठति
न न न अस्तु एकनिमिषः अहम् अन्यत् दर्शयामि दृश्यते वा इदानीं
आं भगिनि
अस्तु इदानीं एकनिमिषः इदानीम् उत्तिष्ठति इति न कुर्मः प्रथमतया वयं उदाहरणार्थं किं ददामि
हृ हृ दातु भगिनि is that
karoti अस्तु उत्तिष्ठति एव कुर्मः उत्तिष्ठति अस्तु इदानीं वयं लङ्लकारे न पश्यामः लोट्लकारे एव कुर्मः लट्लकारे एव कुर्मः सुलभं भवति प्रथमतया अनन्तरं लङ् लङ्लकारं कुर्मः अस्तु इदानीम् उत्तिष्ठति इति अस्ति वयम् उपसर्गं दातुम् इच्छामः उपसर्गः किम् अस्ति आ योगः उत्तिष्ठति इति तत्र अहं वदामि आ योगः उ औ इति तत्र एतत् किं भवति तत्र आयोगः उ इति अस्ति
औतिष्ठति अर्थं किं भगिनि औतिष्ठति अर्थं समानं वा
ऐ डोण्ट् वन् मिनिट् भगिनि अस्मि I'm not sure if there's even a word like that, so...
Oh, okay, okay.
So, we chose Uttishtati, but there's no actually one word that... There's no actual word that... is autishtati. So sometimes you can make nonsense words that don't mean anything. So for tishtati, you can only let me show you. If you go to Ashtadhyayi, kachanti che tatra तिष्ठति स्था धातुः इदानीम् अत्र सर्वाणि रूपाणि दत्तमस्ति परन्तु अत्र पश्यन्ति चेत् उपसर्गार्थाः इति भवति तत्र गच्छन्ति चेत् वाट् आल् उपसर्गाः यु केन् यूस् इति भवति एण्ड् द मीनिङ्ग् विल् बि गिवन् इन् हिन्दी तत्र स्था धातुः तत्र अव इति भवति अवतिष्ठति नितिष्ठति भवति प्रतिष्ठति इति भवति अस्तु तत्र किं भवति चेत् अस्तु
So, Bhagini, that means only some upasarga go with the words, right? All upasarga don't go with all words.
तत्र किं भवति चेत् सुलभः भवति गीतासोपने किमस्ति दे डोण्ट् डू इट् लैक् दिस् बट् वेन् यु डू द यु वाण्ट् टु डू अस्तु अत्र वि लिख् अस्तु इदानीं जानामि वि लिखति इति अस्ति अस्तु तत्र अस्ति वि योगः लिखति अस्तु किमस्ति इदानीं लङ्लकारे पश्यामः अस्तु vi yogah alikat. Kila?
Aam bhagini.
Asso. Idanim v yogah i. I yogah a. Kimasti?
Yes.
Velikat.
Velikat. No, velikat. Tatra.
Velikat.
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 अत्र प्रश्नाः सन्ति वा? तत्र गीता स्वप्ने आगच्छति, आनयति, उत्तिष्ठति, अनुसरति, बहवः सन्ति. तस्य लङ्लकारे कर्तुं शक्यते. अस्तु एकनिमिषः. अस्तु श्रूयते वा? अस्तु. तत्र अहं भवन्तं श्रोतुं न शक्नोमि. एकनिमिषः पश्यामि किम् अस्ति इति. अस्तु इदानीं श्रूयते वा?
आं भगिनि.
आम् अस्तु इदानीं श्रूयते. अस्तु तत्र गीतासोपाने तत्र बहवः क्रियापदानि सन्ति. तत्र आगच्छति, आनयति, उत्तिष्ठति. भवन्तः सर्वे अभ्यासं कर्तुं शक्नुवन्ति. अस्तु इदानीं तत्र सन्धिः, तस्य विषये वयं अग्रिमवासरे किञ्चिदेव पठामः. तत्र किञ्चित् पठामः, परन्तु तत्र वि वोण्ट् डिस्कस् इट् इन् मच् डीटेल्. अस्तु, ऐ एम् जस्ट् गिविङ्ग् वाट् वि नीड् टु लैक् इफ् यु वाण्ट् टु डु इन् लङ्लकार हौ टु आड् द उपसर्गः. अस्तु अस्तु इदानीं अहं तत्र गृहपाठस्य विषये अहम् ईमेल् न प्रेषितवती, परन्तु भवन्तः पुल्लिङ्ग् अङ्गस्य शब्दानाम् अभ्यासं कर्तुं कृतवन्तः वा? न कृतवन्तः चेत् चिन्ता मास्तु, अहं न
प्रेषितवती.
ओके, वाट् आल् डिड् एव्री ओन् मेमोरैज़्?
ऐ डिड्न्ट् डू अकारान्त भगिनि, ऐ डिड् अकारान्त, इकारान्त एण्ड् उकारान्त.
सो यू केन् से देम् विदौट् लुकिङ्ग्?
I can try, Bhagini. I'll take some time though to think and have it.
That's okay. Astu. Ragendra Mahodaya, Bhavan, kim krutavan?
I did four of them, but I think the U and Rakarant is slightly challenging for a few locations. But I can try.
अस्तु अनन्तरं लक्ष्मी भगिनी भवती
I tried the first three of them, not the Rukaranta, but I can, yeah, I tried, but I can do the first one, but the other two I still cannot, I can try and, but, yeah.
Chinta mastu, astu.
Yeah.
Kim kurmah chet, kinchit pulinga seva vishaye vayam kinchit apyasam kurmah, antam grahapatam bhavati, tatra, पुल्लिङ्गशब्दानां विभक्ति अभ्यासं कृत्वा त्रीणि कण्ठस्थीकरणं बि फ्लूयेण्ट् इन् इट् अस्तु फर् त्री आफ् दम् इन् पुल्लिङ्गः एण्ड् देन् पुस्तके पुटसङ्ख्या नवतिः अस्ति किल नवतिः मध्ये वाक्यानाम् अर्थम् अवगच्छन्तु अग्रिमवासरे सर्वाणि वाक्यानि वयं पठामः अस्तु सो दट् वि केन् गो त्रू इट् क्विक्लि अस्तु Anantaram, also when you read the 18 sentences, if you can write, translate those sentences into English and you can send it to me. Astu. Astu. Idanim vipak teha abhyasam kurmaha. Astu. Pratamateya akaranta pullingaha. Astu. पञ्चजनः अस्तु बृन्दा भगिनी भवती प्रथमा अपि द्वितीया वदति गोपाल् महोदय भवान् तृतीया वदति लक्ष्मी भगिनी भवती चतुर्थी पञ्चमी नागेन्द्र महोदय भवान् षष्टि सप्तमी अपि प्रिया भगिनी भवती सम्बोधनम् अस्तु अस्तु इदानीं शब्दः अस्ति महोदयः
Should it be like Ramaha, Bhagini? Ramaha?
Akaranta Pulinga.
Akaranta Pulinga. Mahodayaha, Mahodayaha, Mahodayam, Mahodayau, Mahodayan.
Gopal Mahodaya? अस्तु महोदयेन महोदयाभ्यां महोदयैः लक्ष्मी भगिनी
महोदयाय महोदयाभ्यां महोदयेभ्यः महोदयात् महोदयाभ्यां महोदयेभ्यः
महोदयो महोदयानां महोदये महोदयोः महोदयेषु
हे महोदय हे महोदयौ हे महोदयाः
समीचीनम् अस्तु इदानीं कृष्णः
कृष्णौ कृष्णाः कृष्णं कृष्णौ कृष्णान्
कृष्णेन कृष्णाभ्यां कृष्णैः कृष्णाय कृष्णाभ्यां कृष्णे
तावदेव तृतीया एव
कृष्णेन कृष्णाभ्यां कृष्णैः
लक्ष्मी भगिनी
कृष्णाय कृष्णाभ्यां कृष्णेभ्यः कृष्णात् कृष्णाभ्यां कृष्णेभ्यः
कृष्णस्य कृष्णयोः कृष्णानां कृष्णे कृष्णयोः कृष्णेषु
Hey Krishna, Hey Krishnau, Hey Krishnah.
Samichinam. Astu. Idaniam ikarantam kurmah. Munihi.
Munihi, Muni, Munayaha. Munim, Muni, Munim.
Gopal Mahodaya. As Priya Bhagini Bhavati Kartum Icchati Va?
Shruyate Va?
Am Shruyate Mahodaya.
Munihi, Muni, Munayaha, Munim.
Bhavan Tritiya Eva Vadatu Mahodaya.
Oh, okay. Munayaha. This is Haraye. Hari Shabdavatu. Muni Shabdam. Haraye. Mane Munaye. Muni Bhyam.
Namahodaya Tritiya Eva. Harina.
Munaye, Harina, Haribhyam, Haribihi. Munaye, Munibhyam,
Munina, Munibhyam,
Munibihi.
Munaye, Munibhyam, Munibhyaha, Munehe, Munibhyam, Munibhyaha.
Muneha, Munayoha, Muninam, Munau, Munayoha. Munishu.
Hey Mune, Hey Muni, Hey Munayaha.
Samichina. Ashtu. Anantaram. Agnihi. Agnihi.
Agnihi.
Agnihi, Agni, Agnayaha. Agnim. Agni, Agnin.
Agni na Agni Bhyam Agni Bihi.
Agnaye Agni Agni Bhyam Agni Bihi. Agnehe Agni Bhyam Agni Bihi.
Agni.
Agneha Agneyoha Agnishu.
He Agni Agnayaha.
Samichinam. Kapihi dikte vanarah.
Okay, ikara.
Kapihi.
Hari ikara. Hari shabdavat. Hari shabdavat eva. Kapihi.
Kapihi. Kapi kapayaha. Kapim. Kapi kapin.
Kapi na. Kapi bhyam. Kapi bihi.
Kapaye, Kapibhyam, Kapibhyaha, Kapehe, Kapibhyam, Kapibhyaha.
Kapeha, Kapayoha, Kapinam, Kapau, Kapayoha, Kapishu.
Kap, he Kape, he Kapi, he Kapayaha.
Astu, samichinam. Ganapatihi.
Ganapatihi, Ganapati, Ganapatayaha, Ganapatim, Ganapati, Ganapatin.
Ganapatin. Ganapatina, Ganapati Bhyam, Ganapati Bihi.
Ganapataye, Ganapati Bhyam. Ganapati Bhyaha, Ganapatehe, Ganapati Bhyam, गणपतिभ्यः
गणपतेः गणपत्योः गणपतीनां गणपतौ गणपत्योः गणपतिषु
हे गणपते हे गणपति हे गणपतयः
समीचीनम् अस्तु अनन्तरं इदानीम् उकारान्त गुरुशब्दवत् कुर्मः अभिमन्युः अभिमन्युः
अभिमन्युः अभिमन्यु अभिमन्युवः अभिमन्युम् अभिमन्यु अभिमन्युन्
अभिमन्युना अभिमन्युभ्याम् अभिमन्युभिः
अभिमन्यवे अभिमन्युभ्याम् अभिमन्युभ्यः अभिमन्योः अभिमन्युभ्याम् अभिमन्युभ्यः
षष्ठी
द्विवचनम् अभिमन्योः
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 अभिमन्योः अभिमन्युनाम् अभिमन्योः अभिमन्यवोः अभिमन्युषु
हे अभिमन्यो हे अभिमन्यु हे अभिमन्युवः
समीचीनम् अस्तु इदानीं कृपालुः कृपालुः
कृपालुः कृपालु कृपालवः कृपाल्वं कृपालु कृपालुन्
कृपालु गुरुशब्दवत् कृपालुना और कृपालुना कृपालुभ्यां कृपालुभिः
कृपालु और कृपालु भगिनी
कृपालुः
कृपालुः अन्ति
ओके लो ओके
गुरुणा गुरुभ्यां गुरुभिः सो कृपालुना कृपालुभ्यां कृपालुभिः
कृपालुवे कृपालुभ्यां कृपालुभ्यः कृपालोः कृपालुभ्यां कृपालुभ्यः
कृपालोः कृपालवोः कृपालूनां कृपालौ कृपालवोः कृपालुषु
समीचीनं
हे कृपालो हे कृपालु हे कृपालवः
समीचीनम् अस्तु अस्तु प्रश्नाः सन्ति वा अस्तु न सन्ति चेत् वयं शान्तिमन्त्रं वदामः एकनिमिषः दृश्यते वा
न भगिनि
न भगिनि
इदानीं दृश्यते
या भगिनी भवति वदतु
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखवाक् भवेत्. ॐ शान्ति शान्ति शान्तिः। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः।
धन्यवादः भगिनी, नमस्कारः, पुनर्मिलामः।